अथ त्रयोदशोऽध्यायः। अर्जुन उवाच, प्रकृतिं पुरुषंश्चैव क्षेत्रं क्षेत्रज्ञमेव च एतद्वेत्तुमिच्छामि ज्ञानं ज्ञेयं च केशव। श्रीभगवानुवाच, इदं शरीरं कौन्तेय क्षेत्रमित्याभिधीयते, एतद्यो वेति त्वं प्राहुः क्षेत्रज्ञ इति तद्विदः। क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत। क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम, तक्षेत्रं यश्च यादृक्श्च यद्विकारयतश्च यत्, स च यो यत्प्रभावश्च तत्समासेन मेक्षुणु। ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक्, ब्रह्मसूत्रपदश्चैव हेतुर्मद्भिर्विनिश्चितैः। महाभूतन्यहङ्कारो बुद्धिरव्यक्तमेव च, इन्द्रियाणि दशैकंश्च पञ्चचेन्द्रियगोचराः। इच्छा द्वेषसुखं दुःखं सङ्घाश्चेतनाधृतिः, एतत्क्षेत्रं समासेन सविकारमुदारतम्। अमानित्वम् अधं वित्त्वम् अहिंसा क्षान्तिरार्जवम्, आचार्योपासनं शौच्यं स्थैर्यमात्मविनिग्रहः। इन्द्रियार्थेषु वैराग्य मन अहङ्कार एव च, जन्म मृत्युजरा व्याधिर् दुःखदोषानुदर्शनम्। असक्तिरनभिष्ट्वङ्गः पुत्रद्वारगृहादिषु, नित्यं च समचित्तत्वम् इष्ठानिष्ठोपपत्तिषु। मयि चानन्ययोगेन भक्तिर्व्यभिचारणि, विविक्तदेशसेवित्वम् हरतेर्जनसंसदि। अध्यात्मज्ञाननित्यत्वम् तत्त्वज्ञानार्थदर्शनम्, एतज्ज्ञानमिति प्रोक्तम् अज्ञानं यदतोऽन्यथा। ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ञात्वामृतमश्नुते, अनादिमत्परं ब्रह्म न सत्ना न सदुच्यते। सर्वतः पाणिपादं तत् सर्वतोऽक्षिरसोमुखम्, सर्वतः श्रुतिमल्लोके सर्वमावृततिष्ठते। सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्, असक्तं सर्वभृंश्चैव निर्गुणं गुणभोक्तृश्च। बहिरन्तश्च भूताणाम् अचरं चरमेव च, सूक्ष्मत्वात्तदभिज्ञेयं दूरस्थं चान्तिके च तत्। अविभक्तं च भूतेषु विभक्तमिव च स्थितम्, भूतभर्तुश्च तत्नेयं कर्षिष्णु प्रभ विष्णु च। ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते, ज्ञानं ज्ञेयं ज्ञानगम्यं विधि सर्वस्य विचिष्ठितम्। इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः, मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते। प्रकृतिं पुरुषंश्चैव विज्ञानादि उभावपि, विकारांश्चगुणांश्चैव विद्धि प्रकृतिसम्भवान्। कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते, पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते। पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान्, कारणं गुणसङ्गस्य सदसद्योनिजन्मसु। उपदृष्टानुमन्ताश्च भर्ता भोक्ता महेश्वरः, परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः। य एवं वेति पुरुषं प्रकृतिं च गुणैः सह, सर्वता वर्तमानोऽपि न स भूयोऽभिजायते। ध्यानेनात्मनि पश्यन्ति केचिदात्मनमात्मना, अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे। अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते, तेपे चातितरत्येव मृत्युम् श्रुतिपरायणाः यावत् सञ्जायते किञ्चित् सत्त्वम् स्थावर जङ्गमम् क्षेत्रक्षेत्रसंयोगात् तद्विद्धि भरतर्षभ समम् सर्वेषु भूतेषु तिष्ठन्तम् परमेश्वरम् विनश्यत्स्वम् विनश्यत्स्वम् यपश्यति स पश्यति समम् पश्यन् हि सर्वत्र समवस्थितमीश्वरम् न हीनस्यात्मनात्मानम् ततो यान्ति पराम् गतिम् प्रकृतैव च कर्माणि क्रियमाणानि सर्वशः यः पश्यति तथात्मानम् अकर्तारम् स पश्यति यदा भूतपृथग्भावो एकस्थमनुपश्यति तत एव च विस्तारम् ब्रह्म सम्पद्यते तदा अनादित्वम् त्रिण्गुणत्वात् परमात्मायवव्ययः शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते यथा सर्वगतम् सौक्ष्म्यात् आकाशम् नोपलिप्यते सर्वत्रावस्थितो देहे तथात्मनोपलिप्यते यथा प्रकाशयत्येकः कृष्णम् लोकमिमम् रविः क्षेत्रम् क्षेत्रे तथा कृष्णम् प्रकाशयति भारत क्षेत्रक्षेत्रज्ञयोरेवम् अन्तरम् ज्ञानचक्षुषा भूतः प्रकृतिमोक्षंश्च ये विदुर्यान्ति ते परम् ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः